सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. भगिनी एकवारं श्लोकान् स्मारयतु.
येनाक्षरसमां न्यायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमच्चज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. गुरुभ्यो नमः. सर्वेभ्यः नमस्कारः. धन्यवादः भगिनि.
धन्यवादः. धातुषु अनुबन्धवर्णानां लोपकार्यानन्तरम् अवशिष्टस्वरः कः? अवशिष्टस्वरस्य आधारेण सः धातुः सेट् वा अनेट् वा इति ज्ञातुं शक्नुमः. धातोः परं कीदृशप्रत्ययः अस्ति, तस्य प्रत्ययस्य स्वभावः कः इति आदौ ज्ञातव्यम्. प्रत्ययस्य स्वभावम् अवगन्तुं वयं सूत्रद्वयं पठितवन्तः, आर्धधातुकस्य ड्वलादेः अपि च नेड् वशीकृति. आर्धधातुकस्य ड्वलादेः इति सूत्रेण किमुच्यते? आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारस्थवर्णः अस्ति चेत् तस्य प्रत्ययस्य इडागमः भवति. तत्र चिन्तनं न समाप्तं. सम्पूर्णचिन्तनं किं? तत्र प्रत्ययस्य आदौ वलादिवर्णः भवेत्, अपि च सः प्रत्ययः कृत् प्रत्ययः अस्ति चेत् कृत् प्रत्ययस्य आदौ वश् प्रत्याहारस्थवर्णः अस्ति चेत् तदा नेड् वशीकृति इति सूत्रेण इडागमः निषिध्यते. एकं सूत्रम् इडागमविधायकसूत्रं, द्वितीयं सूत्रम् इडागमनिषेधकसूत्रम्. एवं रीत्या वयं सूत्रद्वयं पठितवन्तः. एतत् सूत्रद्वयं मनसि निधाय अद्य प्रत्ययानां स्वभावम् अवगन्तुं प्रयत्नं कुर्मः. सः प्रत्ययः सेट् वा अनिट् वा, अथवा सः प्रत्ययः इडनुकूलः वा इड् अननुकूलः वा, तस्मिन् प्रत्यये इडनुकूलता वर्तते वा न वा, एतत् सर्वम् अवगन्तुं प्रयत्नं कुर्मः. अत्रापि एकः चिन्तनक्रमः अस्ति. चिन्तनक्रमः पालनीयः. प्रत्येकं प्रत्ययं स्वीकृत्य चिन्तनक्रमम् अनुसृत्य सूत्राणाम् आधारेण वक्तव्यम्. अस्माकं करपत्रे पञ्चविंशतिप्रत्ययाः दत्ताः. आदौ प्रत्ययः कीदृशः? प्रत्ययः धातोः परं विहितः भवति वा, नो चेत् प्रातिपदिकात् परं विहितः भवति वा? सः प्रत्ययः धातोः परं विहितः भवति वा, नो चेत् प्रातिपदिकात् परं विहितः भवति वा इति आदौ ज्ञातव्यम्. धातोः परम् आयाति चेत् सः प्रत्ययः सार्वधातुकः वा आर्धधातुकः वा. तिङ्क्षित् अस्ति चेत् सार्वधातुकः, तिङ्क्षित् नास्ति चेत् आर्धधातुकं शेषः, इत्यनेन आर्धधातुकसंज्ञकः भवति. प्रत्ययः आर्धधातुकसंज्ञकः अस्ति चेत् तादृश आर्धधातुकप्रत्ययस्य आदौ वलादिवर्णः अस्ति वा इति चिन्तनीयम्. प्रत्ययः तिङ् वा षित् वा अस्ति चेत् इडागमस्य चिन्तनम् अनावश्यकम्. अस्माकं चिन्तनं तत्र एव स्थगनीयं, तत्र एव समापनीयम्. प्रत्ययः सार्वधातुकसंज्ञकः अस्ति चेत् अस्माकं चिन्तनं तत्र एव स्थगितं भवति. केवलं प्रत्ययः आर्धधातुकसंज्ञकः अस्ति चेदेव आर्धधातुकस्य ड्वलादेः इति सूत्रेण प्रत्ययस्य आदौ वलादिवर्णः अस्ति चेत् तदा इडागमः भवति. अपि च इतोपि तत्र चिन्तनमस्ति, सः आर्धधातुकप्रत्ययः कृत् प्रत्ययः अस्ति चेत्, कृत् प्रत्ययः इत्युक्ते तिङ् नास्ति, कृद तिङ् इति सूत्रेण ये प्रत्ययाः तिङ्गः न सन्ति ते कृत् प्रत्ययाः भवन्ति. धातुभ्यः विहिताः प्रत्ययाः द्विधा भवन्ति, तिङ् प्रत्ययाः कृत् प्रत्ययाः. सः आर्धधातुकप्रत्ययः तिङ् नास्ति, कृत् अस्ति चेत्, अपि च तस्य आदौ वलादिवर्णः अस्ति चेत् तदा सः प्रत्ययः वशादिः अपि अस्ति वा इति अपि तत्र द्रष्टव्यम्. सः प्रत्ययः वलादिः अपि च वशादिः चेत् तदा नेड् वशीकृति इति सूत्रेण सः प्रत्ययः अनिट् भवति. नेड् वशीकृतिसूत्रेण इडागमः निषिध्यते. कृत् प्रत्ययः वशादिः अपि अस्ति चेत् तस्य प्रत्ययस्य इडागमः न भवति. एतादृशचिन्तनक्रमः पालनीयः. धातोः स्वभावम् अवगन्तुम् एवं रीत्या वक्तव्यं भवति. आरम्भं कुर्मः. आदौ अस्मिन् करपत्रे णिच् इति प्रत्ययः दत्तमस्ति.
भगिनी एकः प्रश्नः अस्ति. भवती उक्तवती सार्वधातुक प्रत्यय अस्ति चेत् इडागमस्य चिन्तनं नास्ति, कथम्?
आर्धधातुकस्य ड्वलादेः इति सूत्रेण किमुच्यते? प्रत्ययः आर्धधातुकसंज्ञकप्रत्ययः अस्ति चेत् एव इडागमः भवति. इत्युक्ते इडागमस्य चिन्तनम् आर्धधातुकप्रक्रियायाम् एव भवति. आर्धधातुक तिङन्तरूपसाधनवेलायाम् आर्धधातुक कृदन्तरूपसाधनवेलायाम् इडागमचिन्तनं करणीयम्.
परन्तु सार्वधातुक प्रत्यय अस्ति चेत् किं भवति?
तादृशचिन्तनमेव तत्र अनावश्यकम्.
सार्वधातुकप्रत्यय अस्ति चेत् इडागमः न भवति?
न भवति.
अस्तु अस्तु.
सार्वधातुकप्रक्रियायां सार्वधातुककृदन्तरूपसाधनवेलायां सार्वधातुककृदन्तरूपाणि इत्युक्ते उदाहरणार्थं शत्रुप्रत्ययः, शाणच् प्रत्ययः, सार्वधातुककृत्प्रत्ययद्वयं, तयोः रूपसिद्धौ इडागमचिन्तनम् अनावश्यकम्. एवमेव सार्वधातुकतिङन्तरूपसाधनवेलायाम् इत्युक्ते लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षलकारेषु इडागमचिन्तनम् अनावश्यकम्. सार्वधातुकप्रक्रियायाम् इडागमचिन्तनम् अनावश्यकम्. केवलम् आर्धधातुकप्रक्रियायाम् एव एतादृशचिन्तनं भवति.
भगिनि, ईत् संज्ञा न आयाति न सार्वधातुकप्रत्यये?
प्रत्ययः सार्वधातुकसंज्ञकः अस्ति चेत् अस्माकं चिन्तनं तत्र एव स्थगनीयम्. इतोपि चिन्तनस्य आवश्यकता नास्ति. तत्र इडागमस्य चिन्तनम् अनावश्यकम्. अत्र चिन्तनमस्ति, क्रमः कः इत्युक्ते, सः प्रत्ययः धातोः परमायाति वा प्रातिपदिकात् परमायाति वा इति आदौ ज्ञातव्यम्. तस्मात् परं सः प्रत्ययः तिङ्प्रत्ययः वा अथवा कृत्प्रत्ययः वा इत्यपि ज्ञातव्यम्. अपि च सः प्रत्ययः सार्वधातुकसंज्ञकः वा आर्धधातुकसंज्ञकः वा इत्यपि ज्ञातव्यं. तेन एव प्रत्ययस्य स्वभावम् अवगन्तुं शक्नुमः, इडागमः भवति वा न भवति वा. केवलं प्रत्ययानां प्रसङ्गे एव अद्य चिन्तनं कुर्मः. धातूनां प्रसङ्गे एकं सूत्रमस्ति, तत् सूत्रं पठित्वा कांश्चन धातून् स्वीकृत्य चिन्तनं करिष्यामः. नरसिंहहेग्डे महोदय, णिच् प्रत्ययः दत्तः, तस्मिन् प्रसङ्गे वदतु.
महोदय, णिच् प्रत्ययः अत्र णिच् चकार हलन्त्यम् इत्यनेन संज्ञा भवति, णकार चुटु इत्यनेन संज्ञा भवति. ई अवशिष्यते, यत् शिङ् अपि नास्ति, शित् अपि नास्ति, अतः आर्धातुकप्रत्ययः अस्ति. आर्धातुकप्रत्यये कृते सूत्रमस्ति आर्धातुकसेड् वलादे इति. अत्र ई इति अवशिष्यते, अतः ई स्वरः अस्ति, वलादि नास्ति, अतः इडागमस्य प्रसक्ति नास्ति. अत्र सनादिप्रत्ययः अस्ति, इडागमः न भवति.
साधु महोदय, महोदयेन यदुक्तं तत् साधु एव. स्मर्तव्यः अंशः कः? नरेश् महोदय, भवान् किम् अवगतवान् अत्र णिच् प्रत्ययस्य प्रसङ्गे? भवान् वदतु.
णिच् प्रत्ययः अस्ति चेत् चकारस्य हलन्त्यं सूत्रेण इत्संज्ञा भवति, तस्य लोपः. नकारस्य अपि किमस्ति, चुटु सूत्रेण इत्संज्ञा भवति. इ एव अवशिष्यते, इकारः अस्ति तत्र.
साधु उक्तं नरसिंहहेग्डे महोदयेन. किञ्चित् पुनःस्मरणार्थं वदन्ति अस्मि, अत्र अनुबन्धवर्णानां निष्कासनानन्तरं ई एव अवशिष्यते. अयं प्रत्ययः तिङ् नास्ति, षित् नास्ति, अतः आर्धधातुकं शेषः इत्यनेन णिच् प्रत्ययः आर्धधातुकसंज्ञकप्रत्ययः. अपि च णिच् प्रत्ययः सनादिप्रत्ययेषु अन्यतमः. इत्युक्ते द्वादश सन् आदयः प्रत्ययाः, द्वादशप्रत्ययाः सन्ति, तेषु अन्यतमः णिच् प्रत्ययः. तेषां योजनेन नूतनधातोः निर्माणं भवति. चुर् अस्ति चेत् चोरि इति नूतनधातोः निर्माणं भवति. णिच् प्रत्ययः आर्धधातुकसंज्ञकः एव, किन्तु प्रत्ययस्य आदौ ईकारः अस्ति. ईकारः वलादिवर्णः नास्ति, अवलादिः. भिन्नरीत्या वक्तुमिच्छामश्चेत् अच् वर्णः, स्वरवर्णः अस्ति, वलादिः नास्ति. अतः अस्माकं चिन्तनं तत्र एव स्थगनीयं. नेड्वशीकृति सूत्रपर्यन्तं न गन्तव्यम्. अपि च अत्र एकः विषयः अस्ति, णिच् प्रत्ययः कृत् नास्ति, कृत् प्रत्ययः नास्ति. णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति. आर्धधातुकसंज्ञकः एव किन्तु कृत् प्रत्ययः नास्ति अतः आर्धधातुकस्य ड्वलादेः इति सूत्रेण इडागमः न भवति प्रत्ययस्य स्वभावं वक्तुं किं वक्तुं शक्यते अयं प्रत्ययः अवलादिः अतः अनिट् प्रत्ययः इडागमयोग्यः नास्ति इति वक्तुं शक्यते द्वितीयप्रत्ययः अस्ति शाकन् गीताञ्जलिभगिनी वदतु
शाकन् शाकन् इत्युक्ते
अनुबन्धवर्णानां लोपकार्यम् आदौ करणीयम्
अस्तु अन्ते नकार अस्ति हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः शाक् इति शकार लशक्वतदिते
प्रत्ययस्य आदौ शकारः अस्ति अतः केन सूत्रेण शकारस्य आदिमशकारस्य इति संज्ञा भवति
आदौ अस्ति चेत्
भवती चिन्तयतु
एकं तु चुट्टु अस्ति अन्यत् एकम् अस्ति विस्मरामि भगिनि
शः प्रत्ययस्य
शः प्रत्ययस्य अस्तु
भवती चिन्तयतु नरेश महोदय भवान् वदतु शाकन् प्रत्ययस्य प्रसङ्गे
शाकन् प्रथमं तु नकारस्य हलन्त्यं सूत्रेण इत्संज्ञा भवति तस्य लोपः अन्यत् शः प्रत्ययस्य तत्र आदौ शकारस्य इत्संज्ञा भवति आक् एव अवशिष्यते
आक इति अवशिष्यते पश्यन्तु प्रत्ययस्य आदौ शकारः अस्ति चेत् शः प्रत्ययस्य इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य मूर्धन्यशकारस्य इति संज्ञा भवति किन्तु धातोः आदौ शकारः अस्ति चेत् केन सूत्रेण कार्यं भवति
तत्र तु धातौ आदौ शकारः अस्ति चेत् न इत्संज्ञा न भवति तत्तु केवलं प्रत्यये आदौ भवति
अत्र भेदः अवगन्तव्यः प्रत्ययस्य आदौ शकारः अस्ति चेत् शः प्रत्ययस्य इति सूत्रेण तत्र स्थितस्य शकारस्य इति संज्ञा भवति किन्तु उपदेशावस्थायां धातोः आदौ शकारः अस्ति चेत् तस्य इति संज्ञा न भवति तत्र किं भवति मूर्धन्यशकारस्य स्थाने दन्त्यसकारः आयाति धात्वादेः शः सः इति सूत्रेण मूर्धन्यशकारस्य स्थाने दन्त्यसकारः आयाति धातूनां प्रसङ्गे खलु अत्र प्रत्ययस्य स्वभावम् अवगन्तुं सूत्राणि कानि कीदृशप्रत्ययः शाकन्
शाकन् आक् तत्तु ठक् प्रत्ययः अस्ति
अत्रैव लिखितमस्ति अयं प्रत्ययः कृत् प्रत्ययः अनुबन्धवर्णानां लोपकार्यानन्तरम् आक अवशिष्यते इदानीं वदतु आक इत्यत्र आदिमवर्णः कः
आक आदिं तु आकारः अस्ति अच् वर्णः अस्ति
इत्युक्ते अस्माकं चिन्तनं किम् इडनुकूलः वा न वा सेट् वा अनिट् वा वदतु
तत्तु वलादे नास्ति वलादे नास्ति चेत् अत्र अनिट् अस्ति
उत्तमं चिन्तनं किं यद्यपि अयं प्रत्ययः कृत् प्रत्ययः कृत् प्रत्ययः अपि च तिङ्क्षित् नास्ति तिङ्क्षित् नास्ति इति कारणतः आर्धधातुकप्रत्ययः शाकन् प्रत्ययः आर्धधातुककृत् प्रत्ययः अनुबन्धवर्णानां निष्कासनानन्तरम् आक अवशिष्यते निरनुबन्धप्रत्ययः आक प्रत्ययः आर्धधातुकसंज्ञकः अस्ति अतः आर्धधातुकस्य ड्वलादेः इति सूत्रेण कार्यं भवति वा इति चिन्तनीयं प्रत्ययस्य आदौ वलादिवर्णः नास्ति आकारः अस्ति आकारः वल् प्रत्याहारे अन्तर्भूतः नास्ति अतः इडागमः न भवति अयं प्रत्ययः इडागमयोग्यः नास्ति इत्युक्ते आर्धधातुकस्य ड्वलादेः इति सूत्रेण प्रथमसूत्रेण एव कार्यं न भवति अतः द्वितीयसूत्रपर्यन्तं न गन्तव्यम् अस्माकं चिन्तनं तत्र एव स्थगितं भवति. नेड् वशीकृति इति सूत्रपर्यन्तं गन्तुम् आवश्यकता एव नास्ति. अयं प्रत्ययः वलादिः नास्ति, अतः अनिट् भवति. तृतीयप्रत्ययः अस्ति जुस्. जुस् प्रत्ययस्य प्रसङ्गे सुजाता भगिनी भवती वदतु.
जुस् प्रत्ययः तिङ् प्रत्ययः अस्ति. जकारः चुटु इत्यनेन जकारस्य लोपः भवति. उस् एव अवशिष्यते.
जकारः चुटु इति सूत्रेण अपगच्छति. सकारस्य इत्संज्ञा भवति वा न वा?
न भवति.
किमर्थं
न विभक्तौ तु स्म इत्यनेन सकारस्य इत्संज्ञा न भवति.
न विभक्तौ तु स्मः सूत्रं किं वदति?
प्रत्ययस्य अन्ते सकारः अस्ति चेत् तस्य इत्संज्ञा न भवति.
उत्तमम्. यः प्रत्ययः विभक्तिसंज्ञकप्रत्ययः अस्ति, विभक्तिसंज्ञकप्रत्ययस्य अन्ते तवर्गीयव्यञ्जनानि अथवा सकारः अथवा मकारः एतेषु अन्यतमवर्णः अस्ति चेत् न विभक्तौ तु स्मः इति सूत्रेण इत्संज्ञा निषिध्यते. न विभक्तौ तु स्मः इति सूत्रम् इत्संज्ञा निषेधकसूत्रमस्ति. तेन सूत्रेण अत्र स्थितस्य जुस् इति प्रत्ययस्य अन्ते स्थितस्य सकारस्य इत्संज्ञा न भवति. विभक्तिश्च इति एकं सूत्रमस्ति. विभक्तिश्च इति सूत्रेण जुस् प्रत्ययः विभक्तिसंज्ञकप्रत्ययः भवति. अत्र सकारस्य इति संज्ञा न भवति, सकारः यथावत् तिष्ठति. अत्र अवशिष्टप्रत्ययः कः? निरनुबन्धप्रत्ययः
उस् अस्ति. उस् अस्ति, तिङ् प्रत्ययः अस्ति, तिङ्क्षित् सार्वधातुकम् अस्ति, इत्यनेन इडागमस्य प्रसक्तिः नास्ति.
किमर्थम् इडागमस्य प्रसङ्गः नास्ति? स्पष्टतया वदतु. अयं प्रत्ययः कीदृशः?
सार्वधातुकप्रत्ययः अस्ति, विभक्तिप्रत्ययः, तिङ् प्रत्ययः अस्ति, तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति. सार्वधातुकप्रत्ययस्य
इडागमः न भवति. अत्र पश्यन्तु, तिङ्क्षित् सार्वधातुकम्, तिङ्क्षित् सार्वधातुकम् इत्युक्ते सूत्रे एव साक्षात् उक्तमस्ति तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः, षित् प्रत्ययाः अपि सार्वधातुकसंज्ञकाः. यस्मिन् प्रत्यये तालव्यशकारः इति संज्ञकः अस्ति ते प्रत्ययाः षित् प्रत्ययाः. तिङ्प्रत्ययाः षित् प्रत्ययाः सार्वधातुकसंज्ञकाः. अतः अयं जुस् प्रत्ययः अपि सार्वधातुकसंज्ञकः. प्रत्ययः सार्वधातुकसंज्ञकः अस्ति चेत् इडागमचिन्तनम् अनावश्यकम्. अस्माकं चिन्तनं तत्र एव स्थगनीयम्. प्रत्ययः आर्धधातुकसंज्ञकः अस्ति चेदेव तत्र इडागमचिन्तनं करणीयम्. अयं प्रत्ययः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञकः, अतः इडागमस्य प्रसक्तिः अत्र नास्ति.
भगिनी, जुस् इति अस्ति चेत् न विभक्तौ तु स्मः केवलं सुबन्तान्तकृते अस्ति खलु, अतः तिङ् प्रत्ययः अस्ति, अतः हलन्त्यम् इति सूत्रेण सकारस्य लोपः भवति, केवलम् उ इति अवशिष्यते खलु.
न, सकारस्य निषेधः न भवति. न विभक्तौ तु स्मः इति सूत्रेण सकारः तत्र तिष्ठति.
केवलं सुबन्त
न केवलं सुप्रत्ययाः, तिङ् प्रत्ययाः अपि विभक्तिसंज्ञकाः एव. विभक्तिश्च एकं सूत्रमस्ति. विभक्तिश्च इति सूत्रेण न केवलं सुप्रत्ययाः, तिङ् प्रत्ययाः अपि विभक्तिसंज्ञकाः एव. यद्यपि लोके सुप्रत्ययानां प्रसङ्गे एव प्रथमा विभक्तिः, द्वितीया विभक्तिः एवं सुप्रत्ययानां प्रसङ्गे एव वदामः, किन्तु पाणिनेः अष्टाध्याय्यां तद् न उक्तमस्ति. इत्युक्ते तिङ् प्रत्ययाः अपि विभक्तिश्च सूत्रेण विभक्तिसंज्ञकाः भवन्ति. अतः न विभक्तौ तु स्मः इति सूत्रेण अत्र स्थितस्य सकारस्य लोपः न भवति, सकारः तिष्ठति. जुस् प्रत्ययस्य चिन्तनं कुत्र आयाति इति प्रश्ने सति विधिलिङ्ग्लकारः अस्ति खलु, आशीर्लिङ्ग्लकारः. वीणा भगिनी वदतु.
आम् आम्, भवेत् भवेतां भवेयुः भवे विजलिङ्ग् खलु भवेत् भवेतां भवेयुः भवेः भवेतं भवेः
विशेषतया प्रथमपुरुष बहुवचनरूपं भवेयुः खादेयुः युः इति रूपं साधयितुम् एकं सूत्रमस्ति विशिष्टसूत्रम् अग्रे गत्वा वयं पठिष्यामः विधिलिङ्गलकारप्रसङ्गे झेर् जुस् इति एकं सूत्रमस्ति झेः जुस् इति पदद्वयमस्ति झेः जुस् झि इति प्रथमपुरुष बहुवचनप्रत्ययः अस्ति खलु झि इति प्रत्ययस्य स्थाने बहुवचनप्रत्ययः झि इति प्रत्ययस्य स्थाने झेर् जुस् इति सूत्रेण जुस् आदिष्टः भवति उस् निरनुबन्धप्रत्ययः जुस् इत्यत्र जकारस्य इति संज्ञा चुटु इति सूत्रेण भवति तेन उस् अवशिष्यते उस् इत्यत्र ससजुषोरुः इति सूत्रेण रु आदिष्टः भवति रु आदेशः भवति तत्पश्चात् खरवसानयोर्विसर्जनीयः इति सूत्रेण रेफस्य स्थाने विसर्गादेशः भवति रुत्वविसर्गयोः कारणेन पठेयुः खादेयुः गच्छेयुः भवेयुः इति प्रथमपुरुष बहुवचनरूपं सिद्ध्यति झेर् जुस् इति सूत्रस्य प्रसङ्गे जुस् प्रत्ययं द्रष्टुं शक्नुमः इतोपि चिन्तनं किं भवती वदतु इतोपि सारांशः कः अत्र
आम् अत्र उस् इति अन्तिमरूपं अन्तिम अनुबन्धानन्तरम् अन्तिमरूपं निष्पद्यते उस् इति तिङ् प्रत्ययः अस्ति अतः न विभक्तौ तु स्म इति कारणेन सकारस्य लोपः न भवति तत्र एकः प्रत्ययः इति एकं सूत्रम् अस्ति तदनुसारम् अत्र सकारस्य लोपः न भवति जकारस्य केवलमेव इत्संज्ञा भवति तस्य लोपः भवति उस् इति अवशिष्यते
किन्तु अस्माकं चिन्तनं किम् अयं प्रत्ययः इडनुकूलः वा न वा
इडनुकूलः अत्र तिङ् सर्वदा तिङ्क्षित् प्रत्ययः अस्ति अतः अत्र इडानुकूलस्य प्रसक्तिः एव नास्ति न भवति
अयं प्रत्ययः आर्धधातुकसंज्ञकः नास्ति तिङ्क्षित् सार्वधातुकम् इति सूत्रेण अयं तिङ् प्रत्ययः सार्वधातुकसंज्ञकः अतः अत्र इडागमचिन्तनम् अनावश्यकम् आर्धधातुकस्य वलादेः नेड्वशीकृति द्वयोः सूत्रयोः प्रसक्तिः अत्र अनावश्यकम् अतः प्रत्ययः अनिट् इति वक्तुं शक्यते निष्कर्षः कः इडागमचिन्तनम् अत्र अनावश्यकं प्रत्ययः तिङ् अस्ति इति कारणतः अग्रे भवती एव वदतु
टा इति प्रत्ययः अस्ति टा इति चुटु इति सूत्रेण टकारस्य इत्संज्ञा भवति तस्य लोपः भवति आ इति अवशिष्यते एतत् अपि सुप्रत्ययः अस्ति अतः तिङ्क्षित् सार्वधारुतुकम् इति सूत्रेण अत्र अपि इडागमस्य प्रसक्तिः एव नास्ति अनिट् अस्ति आ इति अवशिष्यते अनिट् अस्ति इडानुकूलः न भवति आ इति अवशिष्यते
अत्र स्मर्तव्यः अंशः कः अत्र किञ्चित् वैशिष्ट्यम् अस्ति अयं प्रत्ययः सुप् प्रत्ययः इत्युक्ते किं
सुबन्त नामपदम् अस्ति
अत्र भेदः अवगन्तव्यः खलु धातोः परम् अयं प्रत्ययः न विहितः भवति अयं प्रत्ययः प्रातिपदिकात् विधीयते केचन प्रत्ययाः धातुभ्यः विहिताः भवन्ति अयं प्रत्ययः कीदृशः अयं प्रत्ययः धातुतः विधीयमानः प्रत्ययः नास्ति अयं प्रत्ययः प्रातिपदिकात् अत्र भेदः कः
प्रातिपदिकात् विहितम् अस्ति धातोः भेदः इत्युक्ते अहं न ज्ञातवती
अयं प्रत्ययः धातुभ्यः न विहितः भवति अस्य प्रत्ययस्य योजनेन केवलं नामपदं सिद्ध्यति खलु अयं प्रत्ययः सार्वधातुकः अथवा आर्धधातुकः इति वक्तुं न शक्यते धातुभ्यः विधीयमानाः प्रत्ययाः तिङ्क्षित् अस्ति चेत् सार्वधातुकसंज्ञकः तिङ्क्षित् नास्ति चेत् आर्धधातुकसंज्ञकः इति वक्तुं शक्यते किन्तु सुप् प्रत्ययानां प्रसङ्गे सार्वधातुकः वा आर्धधातुकः वा इति नास्ति अयं प्रत्ययः सुप्रत्ययः अस्ति इत्युक्ते प्रातिपदिकात् परम् आयाति धातोः परं न कदापि सम्भवति नरसिंहहेग्डे महोदय भवान् वदतु अस्मिन् प्रसङ्गे किं वक्तव्यम्
अस्मिन् प्रसङ्गे महोदय तदेव प्रातिपदिकात् विधीयते सुप्रत्ययः धातोः धातोतः न विधीयते अतः अधातुक इडागमस्य प्रसक्ति धातुतः प्रत्यये विधीयन्ते तस्य कृते एव अस्ति प्रातिपदिकात् विधीयते तस्य कृते नास्ति अतः अत्र इडागमस्य प्रसक्तिः न भवति अत्र तदेव अहम् अवगतम्
मम चिन्तनमपि एवमेव अस्ति अयं प्रत्ययः धातुभ्यः विधीयमानः प्रत्ययः नास्ति अयं प्रत्ययः प्रातिपदिकात् परम् आयाति अस्य प्रत्ययस्य योजनेन सुबन्तपदं सिध्यति इति अत्र वार्ता अतः अत्र इडागमचिन्तनम् अनावश्यकम् केवलं धातुभ्यः विधीयमानाः प्रत्ययाः एव सार्वधातुकाः अथवा अर्धधातुकाः भवन्ति सुप्रत्ययानां प्रसङ्गे तादृशचिन्तनं नास्ति अतः अत्र इडागमचिन्तनम् अनावश्यकम् अग्रिमप्रत्ययः श्यप् अस्ति गीताञ्जलि भगिनी भवती वदतु
आं भगिनि श्यप् श्यप् इति अपि पकारहलन्त्यं सूत्रेण संज्ञा भूत्वा तस्य लोपः श इति लशक्वतद्धिते इति सूत्रमिति अत्र प्रसक्तिः या एव अवशिष्टस्वरः अवशिष्टवर्णः अस्ति
पुनः चिन्तयतु
श्यप् लशक्वतद्धिते
लशक्पतधिते इत्यनेन तालव्यशकारस्य इत् संज्ञा भूत्वा तस्य लोपः इत्यनेन अपगच्छति अन्तिमपकारः हलन्त्यमित्यनेन संज्ञकः भूत्वा अपगच्छति अत्र अवशिष्टप्रत्ययस्य भागः कः या वा पश्यतु
शप् वा श्यप् वा भगिनि
शप् शप् प्रत्ययः
क्षम्यताम् अहं श्यप् इति अस्तु अस्तु क्षम्यतां भगिनि शप् हा शप् तु इति हा अकार एव तिष्ठति मध्ये अकार अस्ति किन्तु अत्र तिंशत् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः अस्ति इत्युक्ते इडागमस्य चिन्तनम् एव न भवेत् अत्र
उत्तमम् इतोपि वक्तुमिच्छामश्चेत् शप् इति गणविकरणप्रत्ययः शप् गणविकरणप्रत्ययः कुत्र आयाति वदतु
हा कर्तरि शप् इति सूत्रं वयं जानीमः कर्त्रार्थे अस्ति चेत् तत्र धातुतः मध्ये धातु तिङ् प्रत्ययमध्ये कर्तरि शप् इति सूत्रेण शप् आयाति कर्त्रार्थे चेत् इति विषय भगिनि
उत्तमं शप् इति गणविकरणप्रत्ययः अपि च
शप् प्रत्ययः भ्वादिगणस्य प्रत्ययः अस्ति तत्र कर्तरि शप् इति सूत्रेण कर्तरि इदे लट् लकारे तिप्य तिप् अस्ति शप् शकारस्य लशक्वतद्धिते इति सूत्रेण लोपः भवति पकारस्य हलन्त्यम् इति सूत्रेण लोपः भवति आ एव अवशिष्यते एतत् षित् अपि अस्ति पित् अपि अस्ति एतत् प्रत्ययः तिंशित् सार्वधातुकम् इति सूत्रेण शप् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति एवं भ्वादिगणीयधातोः तत्र गुणस्य प्रसक्तिः अपि अस्ति परन्तु एतत् सार्वधातुकं सार्वधातुकम् इति कारणेन आर्धधातुकप्रत्ययः नास्ति तत् कारणेन तत्र इडागमचिन्तनं कदापि न भवति तदेव इडागमं कवि कदापि न भवितुम् अर्हति
तादृशचिन्तनम् अत्र अस्ति कर्तरि शप् इति एकं सूत्रमस्ति कर्तरि शप् तत् सूत्रम् उत्सर्गसूत्रं डिफाल्ट् सूत्रं प्रत्येकस्मिन् गणे कर्तरि शप् इति सूत्रेण आदौ शप् विहितः भवति किन्तु शपं प्रबाध्य केषुचित् गणेषु भिन्नविकरणप्रत्ययाः आयान्ति कर्तरि शप् इति उत्सर्गसूत्रमस्ति किन्तु दिवादिगणे पश्यामश्चेत् दिवादिभ्यः शन् इति सूत्रेण शपं प्रबाध्य श्यन् इति विकरणप्रत्ययः दिवादिगणे आयाति, क्रयादिगणे अस्ति चेत् श्ना विकरणप्रत्ययः आयाति. इत्युक्ते प्रत्येकस्मिन् गणे उत्सर्गसूत्रेण कर्तरि शप् इति सूत्रेण आदौ शप् एव आयाति, किन्तु शपं प्रबाध्य अन्यविकरणाः पश्चात् आयान्ति इति तत्र वार्ता अस्ति. भिन्नगणेषु भिन्नविकरणप्रत्ययाः आयान्ति सार्वधातुकप्रक्रियायां. सार्वधातुकतिङन्तरूपसाधनवेलायां गणविकरणप्रत्ययः कः इति आदौ द्रष्टव्यं. भुवादिगणे शपायाति, चुरादिगणे अपि शपायाति, किन्तु अन्येषु गणेषु शपं प्रपाद्य अन्यानि कार्याणि भवन्ति. अदादिगणे अस्ति चेत् शपः लुक् भवति, जुहोत्यादिगणे शपः श्लू भवति, एवं भिन्नकार्याणि भवन्ति. अन्येषु गणेषु शपं प्रपाद्य अन्यविकरणः आयान्ति इति अन्या वार्ता. अत्र शकारपकारयोः लोपकार्यानन्तरम् आ अवशिष्यते. अयं प्रत्ययः षित् अस्ति, षकारः इत् यस्य सः. षित् अस्ति इति कारणतः सूत्रे साक्षात् उक्तमस्ति तिङ्षित् सार्वधातुकम् इति सूत्रेण. षित् सार्वधातुकसंज्ञकः अस्ति, अयं प्रत्ययः षित् प्रत्ययः, अतः सार्वधातुकसंज्ञकः. सार्वधातुकसंज्ञकः अस्ति इति कारणतः अत्र एडागमचिन्तनम् अनावश्यकम्. आर्धधातुकप्रत्ययः नास्ति, तिङ्क्षित् सार्वधातुकम् इत्यनेन अयं सार्वधातुकसंज्ञकः, अतः अस्माकं चिन्तनं तत्र एव स्थगनीयं. सेट् वा अनिट् वा इति प्रसङ्गः एव अत्र अनावश्यकम्. अग्रिमप्रत्ययः नस् ञस् इति कथनेन आदौ कवर्गीय अनुनासिकव्यञ्जनम् अस्ति. अयं प्रत्ययः सुप्रत्ययः, षष्टिविभक्ति एकवचनप्रत्ययः नस् प्रत्ययः. सुन्दर महोदय, भवान् वदतु अत्र किं भवति?
अत्रापि नस् इति विभक्तिप्रत्ययः अस्ति. विभक्तिप्रत्ययः इति सूत्रेण न विभक्तौ तु स्मः इति सूत्रेण सकारस्य इत्संज्ञा न भवति, लोपः अपि न भवति, सकारस्य तत्रैव तिष्ठति. नकारस्य लशक्वदिते इति सूत्रेण नकारस्य एव इत्संज्ञा भूत्वा लोपः भवति. परन्तु एतत् सुप्रत्ययः, सुप् इति नामपदं प्रातिपदिकात् विहितः प्रत्ययः, तत्कारणेन एतद् नामपद पदव्यवस्थायाम् अस्ति. एतद् धातुभ्यः विहितः नास्ति एतत् प्रत्ययः, तत्कारणेन सुप्रत्ययः कोऽपि सार्वधातुकमपि न भवितुम् अर्हति, आदुधातुकमपि न भवितुम् अर्हति. तत्कारणेन इडागमस्य अनावश्यक इडागमचिन्तनमेव अनावश्यकम् इति वार्ता.
उत्तमं महोदय, तदेव अन्तिमसकारः अत्र तिष्ठति. अन्तिमसकारः हलन्त्यम् इत्यनेन न अपगच्छति, दन्त्यसकारः तिष्ठति. किमर्थं चेत् अयं प्रत्ययः विभक्तिसंज्ञकप्रत्ययः, प्रत्ययः एव विभक्तिसंज्ञकः. विभक्तिसंज्ञकप्रत्ययः अस्ति इति कारणतः न विभक्तौ तु स्मः इति सूत्रेण अन्ते स्थितस्य सकारस्य इत्संज्ञा निषेधः भवति. न विभक्तौ तु स्मः इति इडागमनिषेधकसूत्रमस्ति, अत्र सकारः तिष्ठति. अपि च आदौ यः ञकारः अस्ति सः ञकारः कवर्गीय अन्तिम अनुनासिकव्यञ्जनम् अस्ति, अतः लशकु कु इति कथनेन कवर्गीयव्यञ्जनानि इति अर्थः अस्ति खलु. तत्र लशक्वतधिते इति सूत्रेण आदौ स्थितस्य ञकारस्य इति संज्ञा भूत्वा अस् अवशिष्यते. किन्तु अत्र मुख्यवार्ता का? अयं प्रत्ययः प्रातिपदिकात् विहितः भवति, न तु धातोः परम्. धातुभ्यः विधीयमानाः प्रत्ययाः एव सार्वधातुकाः अथवा आर्धधातुकाः वा भवितुं शक्नुवन्ति. अयं प्रत्ययः धातुभ्यः न विहितः, अयं प्रत्ययः सुप्रत्ययः इत्युक्ते प्रातिपदिकात् विहितः भवति, अतः अत्र इडागमचिन्तनं न करणीयम्. साधु. अग्रे श्ना इति प्रत्ययः अस्ति. वीणा भगिनी भवती वदतु.
श्ना इति प्रत्ययः अस्ति, अत्र शकारस्य तु लशक्कु तद्दिते इति सूत्रेण तस्य लोप इत्संज्ञा भवति, तस्य लोपः भवति, न इति अवशिष्यते, विकरणप्रत्ययः न इति अवशिष्यते. शकार अत्रापि किञ्चित् सार्वधातुकम् इति सूत्रेण अत्र विकरणप्रत्ययः न इडागमस्य प्रसक्तिः नास्ति अत्र विकरण प्रत्यय सार्वधातुक प्रत्ययः अस्ति अतः इडागमः न भवति केवलं न इति अनिट् धातुः अनिट् भवति प्रत्ययः अनिट् भवति न इति के अन्तिमरू रूपम् अवशिष्यते
उत्तमं तदेव अयं श्नाप्रत्ययः कुत्र आयति क्रयादिगणे आयति क्रियादिभ्यः श्ना इति सूत्रमस्ति क्रयादिगणः नवमः गणः अयं प्रत्ययः गणविकरणप्रत्ययः क्रयादिगणीयगणविकरणप्रत्ययः अयं श्नाप्रत्ययः अत्र तालव्यशकारस्य इति संज्ञा लशक्वतधिते इत्यनेन भवति तस्य लोपः इत्यनेन तालव्यशकारस्य लोपः भवति अत्र निरनुबन्धप्रत्ययः ना अस्ति नकारः दीर्घ आकारः अपि अस्ति तत्र किन्तु अयं प्रत्ययः कीदृशः तस्य स्वभावः कः न केवलं गणविकरणप्रत्ययः अपि च अस्मिन् प्रत्यये शकारः इति संज्ञकः शकारः इत् यस्य सः षित् षित् इति समस्तपदमस्ति षित् इत्यस्य विग्रहवाक्यं शकारः इत् यस्य सः षित् अयं प्रत्ययः षित् प्रत्ययः अतः तिंशित् सार्वधातुकम् इत्यनेन अयं प्रत्ययः सार्वधातुकसंज्ञकः आर्धधातुकप्रत्ययानां प्रसङ्गे एव इडागमचिन्तनं भवति अयं प्रत्ययः सार्वधातुकसंज्ञकः धातुभ्यः विधीयमानः गणविकरणप्रत्ययः अयं प्रत्ययः सार्वधातुकसंज्ञकः अतः आर्धधातुकस्य ड्वलादेः इति सूत्रस्य प्रसङ्गः एव अत्र नास्ति प्रत्ययः सार्वधातुकसंज्ञकः अस्ति इति कारणतः इडागमस्य प्रसङ्गः अत्र नास्ति प्रत्ययस्य अवशिष्टभागः नास्ति खलु डुक्री इति धातुः अस्ति धातुतः अनुबन्धवर्णानां निष्कासनानन्तरं क्री तत्र अवशिष्यते क्रीयोगः श्नायोगः ति इति अस्ति अयं गणविकरणप्रत्ययः धातु तिङ् प्रत्ययोः मध्ये आयाति क्रियादिगणे क्रियादिगणीय प्रथमसदस्यः डुक्री धातुः क्री लौकिकधातुः क्रीयोगः श्नायोगः ति क्रीयोगः दन्त्यनकारयुक्तं रूपम् अस्ति इत्युक्ते न इति विकरणप्रत्ययस्य अवशिष्टभागः धातु तिङ्प्रत्ययोः मध्ये अयं गणविकरणप्रत्ययः आयाति सार्वधातुकलकारेषु सार्वधातुकतिङन्तरूपसाधनवेलायाम् अयं श्ना गणविकरणप्रत्ययः धातु तिङ्प्रत्ययोः मध्ये आयाति अपि च क्री इत्यत्र रेफः अस्ति इति कारणतः आणत्वं भूत्वा क्रीणाति इति रूपं सिद्ध्यति किन्तु सार्वधातुकसंज्ञकः अस्ति इति कारणतः इडागमस्य प्रसङ्गः एव अत्र नास्ति आर्धधातुकस्य ड्वलादेः इति सूत्रस्य प्रसक्तिः अत्र नास्ति अग्रिमप्रत्ययः क्त्वा
अग्रिम एकं करोमि भगिनि किमर्थम् इत्युक्ते इडागमस्य प्रसङ्गः अस्ति क्त्वा इति प्रत्ययः अस्ति ककारस्य लशकु इति सूत्रेण तस्य लोपः भवति त्वा इति अवशिष्यते क्त्वा तु कृत् प्रत्ययः अस्ति अतः आर्धधातुकप्रत्ययः अस्ति अतः त्वा इति आर्धधातुक सेत् वलादेः इति सूत्रेण अत्र इडागमस्य प्रसक्तिः भवति वश्य अपि भवति किन्तु त इत्युक्ते वर्गस्य प्रथमवर्णः अस्ति अतः वलादे आर्धधातुक सेत् वलादेः इति सूत्रेण अत्र इडागमस्य प्रसक्तिः भवति समीचीनं वा
उत्तमं तदेव अत्र चिन्तनं किं भवेत् क्त्वा अत्र अनुबन्धवर्णानां लोपकार्यं कथं भवति इति प्रश्ने सति आदौ ककारः अस्ति लशक्वतधिते इति सूत्रेण ककारस्य इति संज्ञा भूत्वा तस्य लोपः इत्यनेन ककारः अपगच्छति अत्र निरनुबन्धप्रत्ययः प्रत्ययस्य अवशिष्टभागः त्वा अस्ति त्वा इति कथनेन प्रत्ययस्य आदौ तकारः अस्ति अयं प्रत्ययः तिङ् नास्ति षित् नास्ति तिङ्षित् नास्ति अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः अयं प्रत्ययः आर्धधातुकसंज्ञकः अपि च प्रत्ययस्य आदौ तकारः अस्ति तकारः वल् प्रत्याहारस्थवर्णः अतः आर्धधातुकस्य ड्वलादेः इति सूत्रेण अत्र इडागमः भवितुं शक्नोति किन्तु तत्र इतोपि चिन्तनं करणीयं किमर्थं चेत् अयं प्रत्ययः आर्धधातुकसंज्ञकः एव किन्तु तिङ् वा कृत्वा इति प्रश्ने सति अयं प्रत्ययः तिङ् नास्ति कृदतिङ् इति सूत्रेण अयं प्रत्ययः कृत् भवति. अयं प्रत्ययः धातुभ्यः विधीयमानः प्रत्ययः एव, किन्तु तिङ् नास्ति. ये प्रत्ययाः तिङ्गः न सन्ति ये कृत्
प्रत्यय. वयं कथं जानीमः यत् तिङ् नास्ति इत्येव कृत् अस्ति इति? तिङ् नास्ति इति कथं जानीमः वयं?
सूत्रमस्ति कृदतिङ् इति सूत्रमस्ति. ये प्रत्ययाः तिङ् प्रत्ययाः न सन्ति ते कृत् प्रत्ययाः भवन्ति. धातुभ्यः विधीयमानाः प्रत्ययाः द्विधा भवन्ति. अयं प्रत्ययः धातुभ्यः विहितः प्रत्ययः एव. पश्यन्तु पठ्ययोगः क्त्वा प्रत्ययस्य योजनेन पठित्वा इति रूपं सिद्ध्यति. खाद् इति धातुतः क्त्वा प्रत्ययस्य योजनेन खादित्वा इति रूपं सिद्ध्यति. इत्युक्ते धातुभ्यः विधीयमानः प्रत्ययः एव, किन्तु तिङ् नास्ति. तिङ् नास्ति इति कारणतः कृदतिङ् इति सूत्रेण अयं प्रत्ययः कृत् प्रत्ययः भवति. खादित्वा पठित्वा इत्यादिषु पदेषु धातौ अपि आनुकूल्यमस्ति इति कारणतः तत्र इडागमः भूत्वा पठित्वा खादित्वा इत्यादीनि रूपाणि सिद्ध्यन्ति. किन्तु गत्वा मत्वा इत्यादिषु पदेषु धातौ आनुकूल्यं नास्ति इति कारणतः, धातुः अनिट् धातुः अस्ति इति कारणतः तत्र इडागमः न भवति. इत्युक्ते इडागमः भवितुं प्रत्यये अपि आनुकूल्यम् आवश्यकं, धातौ अपि आनुकूल्यम् आवश्यकम्. अयं प्रत्ययः कृत् प्रत्ययः. कृत् प्रत्ययः अस्ति इति कारणतः नेड् वशीकृति इति सूत्रेण कार्यं निषिध्यते वा इति अपि चिन्तनीयम्. नेड् वशीकृति इति सूत्रम् इडागमनिषेधकसूत्रम् अस्ति. अयं प्रत्ययः कृत् अस्ति इति कारणतः इडागमः निषिध्यते वा इति अपि चिन्तनीयम्. तकारः वलादिः न तु वशादिः. भवानेव वदतु वल् प्रत्याहारे के के वर्णाः सन्ति, वश् प्रत्याहारे के के वर्णाः सन्ति? सुन्दर् महोदय वदतु.
वल् प्रत्याहारे सर्वे
यकारं
विहाय सर्वे व्यञ्जनानि भवन्ति. सर्वे व्यञ्जनानि वल् प्रत्याहारे अन्तर्भूतानि.
व्यञ्जनानि वल् प्रत्याहारे अन्तर्भूतानि भवन्ति यकारं विहाय. अयं प्रत्ययः कृत् प्रत्ययः अस्ति इति कारणतः इतोपि चिन्तनमस्ति. इत्युक्ते प्रत्ययस्य आदिमवर्णः वशादिः मा भवेत् इति तत्र चिन्तनमस्ति. तकारः वश् प्रत्याहारस्थवर्णः नास्ति इति कारणतः नेड् वशीकृति इति सूत्रेण इडागमनिषेधः न भवति. आर्धधातुकस्येड्वलादेः इति सूत्रेण इडागमः भवति, किन्तु नेड् वशीकृति इति सूत्रेण इडागमनिषेधः न भवति. डबल् नेगेटिव् इति वक्तव्यमस्ति. तत्र इडागमः न निषिध्यते. तकारः वशादिः नास्ति इति कारणतः अत्र इडागमः भवितुं शक्नोति. अस्मिन् प्रत्यये इडनुकूलता वर्तते. अयं प्रत्ययः धातोः परमस्ति चेत् सः धातुः कीदृशः? सः धातुः सेट् वा अनिट् वा इति अपि चिन्तनीयं. धातुः अपि सेट् अस्ति चेदेव इडागमः भवति. पठित्वा इत्यत्र तादृश आनुकूल्यमस्ति, तदर्थमेव पठित्वा इति रूपम्. अग्रिमप्रत्ययः कथा अस्ति. कथाप्रत्ययस्य प्रसङ्गे सुजाता भगिनी भवती वदतु.
त्वा प्रत्ययः अस्ति, कृत् प्रत्ययः. रशक्वतदिति इत्यनेन ककारस्य इत्संज्ञा भवति, ता एव अवशिष्यते. ता वलादिप्रत्ययः अस्ति, तिंशित् नास्ति.
तिंशित् नास्ति चेत् किं भवति?
इडागमः न भवति.
न न, तिंशित् नास्ति चेत् सार्वधातुकः नास्ति. सार्वधातुकः नास्ति चेत् किं भवति?
सार्वधातुकः नास्ति चेत् इडानुकूलः भवति.
तत्र किं वक्तव्यं? सार्वधातुकः नास्ति चेत् आर्धधातुकं शेषः
सूत्रेण इडानुकूलः भवति.
चिन्तयतु, अत्र भवती किम् उक्तवती? तिंशित् नास्ति. तिंशित् नास्ति चेत् सार्वधातुकः नास्ति. सार्वधातुकः नास्ति चेत् आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः इति एकः विषयः. निरनुबन्धप्रत्ययः ता अस्ति. वदतु.
वलादिप्रत्ययः अस्ति इत्यनेन इडानुकूलः भवति.
इतोपि चिन्तनमस्ति खलु, आर्धधातुकस्य वलादेः इति सूत्रेण अस्य प्रत्ययस्य आदिमवर्णः तकारः अस्ति, वलादिवर्णः अस्ति इति कारणतः आर्धधातुकस्य वलादेः सूत्रेण इडागमः भवितुं शक्नोति. अयं प्रत्ययः कृत् प्रत्ययः, अतः
कृत् प्रत्ययः अतः नेड्वशीकृति इत्यनेन इडागमस्य निषेधः भवति.
भवति वा इति चिन्तनीयं. नेड् वशीकृति इति सूत्रस्य प्रसक्तिः अत्र अस्ति वा, नेड् वशीकृति इति सूत्रेण इडागमः निषिध्यते वा इति अपि चिन्तनीयं. किमर्थं चेत् अयं प्रत्ययः कृत् प्रत्ययः, अर्धधातुकस्य वलादेः सूत्रेण इडागमः भवति, किन्तु प्रत्ययः कृत् अस्ति इति कारणतः नेड् वशीकृति इति सूत्रस्य प्रसङ्गः अस्ति वा इति अपि चिन्तनीयम्.
आं भगिनि, कृत् प्रत्ययः प्रत्ययः वशादि अस्ति.
वशादिः अस्ति वा, पश्यतु,
प्रत्ययः कृत् प्रत्ययः अस्ति. अर्धधातुकशेषः इत्यनेन इडानु नेड् वशीकृति इत्यनेन इडागमः न भवति.
भ्रमः अस्ति,
वश् प्रत्ययः नास्ति किल.
भवान् वदतु महोदय, अत्र किं चिन्तनमस्ति?
वश् प्रत्याहारे वर्गीय व्यञ्जनानां तृतीय चतुर्थ पञ्चम सदस्याः एव सदस्याः वकाररेपलकाराः एव तिष्ठन्ति. तत्कारणेन ककारः वश् प्रत्याहारे न तिष्ठति. तत्कारणेन नेड् वशीकृति इति सूत्रस्य प्रसक्तिः अत्र नास्ति. तत्कारणेन अत्र इक्तप्रत्ययः कृत् प्रत्ययः एवम् इडागमस्य अनुकूलता अस्ति. तत्र पठ् धातोः पठितः अनन्तरं
खादितं,
खादि धातोः खादितः खादितं पठितम् एवम् अन्यधातोः दर्शितं दृश्यधातोः दर्शितं दर्शितः एतत् सर्वे इक्तप्रत्ययः एव अस्ति. तत्कारणेन इक्तप्रत्ययस्य इदनुकूलता अस्ति एव. तदेव वार्ता.
साधु महोदय, इदानीं भवती वदतु, सोपानेन वदतु.
प्रत्यये लषक् वदति इत्यनेन ककारस्य इत्संज्ञा भवति, ता एव अवशिष्यते. ता कृत् प्रत्ययः अस्ति, तिङ्क्षित् नास्ति. कृत् तिङ् इत्यनेन अर्धधातुक प्रत्ययः अस्ति. अर्धधातुकशेड् वलादे इत्यनेन इडागमः भवति, इडागमः प्रसक्तिः अस्ति. कृत् प्रत्ययः वलादिप्रत्ययः अस्ति, ता वलादिप्रत्ययः अस्ति इत्यनेन इडागमः भवितुम् अर्हति.
वशादिः नास्ति,
वशादिः नास्ति.
भगिन्या यदुक्तं तत् साधु एव. ता इति निरनुबन्धप्रत्ययः अस्ति. प्रत्ययस्य स्वभावः कः इति अवगन्तुम् अयं प्रत्ययः तिङ्क्षित् नास्ति. तिङ्क्षित् नास्ति इति कारणतः अर्धधातुकं शेषः इति सूत्रेण अयं प्रत्ययः अर्धधातुकसंज्ञकः. अर्धधातुकसंज्ञकः इति कारणतः अर्धधातुकस्य वलादेः इति सूत्रेण अस्य प्रत्ययस्य आदिमवर्णः ता अस्ति. तकारः वल् प्रत्याहारे अस्ति, अतः अर्धधातुकस्य वलादेः सूत्रेण इडागम योग्यः एव. किन्तु तत्र इतोपि चिन्तनं करणीयं. सम्पूर्णचिन्तनं किम् इत्युक्ते, अयं प्रत्ययः अर्धधातुकसंज्ञकः कृद तिङ् इति सूत्रेण अयं प्रत्ययः तिङ् नास्ति इति कारणतः कृत् प्रत्ययः अस्ति. कृत् प्रत्ययः अस्ति इति कारणतः नेड् वशीकृति इति सूत्रस्य आवश्यकता अपि अस्ति वा इति चिन्तनीयं. प्रत्ययः कृत् प्रत्ययः, अतः नेड् वशीकृतिसूत्रेण इडागमनिषेधः भवति वा इति द्रष्टव्यम्. नेड् वशीकृति इति सूत्रेण किमुच्यते इत्युक्ते, प्रत्ययस्य आदौ वशादिवर्णः अस्ति चेत् इडागमः निषिध्यते. अत्र अयं तकारः केवलं वलादिः पशादिः नास्ति, पशादिः नास्ति इति कारणतः नेड् वशीकृति इति सूत्रेण इडागमनिषेधः न भवति. इडागमनिषेधः न भवति इत्युक्ते इडागमः भवति एव, अयं प्रत्ययः इडनुकूलः एव. तदर्थमेव क्ताप्रत्ययान्तरूपाणि पठितं, खादितम् इत्यादिषु इडागमयुक्तं रूपम् अस्ति. किमर्थं चेत् तत्र धातौ अपि आनुकूल्यम् अस्ति. वस्तुतः अयं प्रत्ययः इडनुकूलप्रत्ययः, किन्तु धातौ आनुकूल्यं नास्ति चेत् इडागमः न भवति. केषुचित् धातुषु धातौ एव आनुकूल्यं नास्ति, यथा गतं, ज्ञातं. ज्ञातम् इत्यत्र धातव आनुकूल्यं नास्ति इति कारणतः इडागमः न दृश्यते. वस्तुतः प्रत्ययः तु सेट् प्रत्ययः एव. साधु भगिनी. नरेश् महोदय भवान् करोतु. तृच्,
तृच् अत्र तु अन्तिमचकारस्य हलन्त्यं सूत्रेण यत्संज्ञा भवति तदा त्रि अवशिष्यते. त्रि अस्ति चेत् आदौ तकारः अस्ति. अत्र त्रि सार्वधातुक प्रत्ययः नास्ति, तत्तु आर्धधातुकप्रत्ययः अस्ति. अत्र आर्धधातुक अस्ति चेत् तस्य आर्धधातुकस्य चेडवलादेः तस्य चिन्तनम् अस्ति. तकार वलादि अस्ति, अतः अत्र इडागमः प्रसक्तिः अस्ति. परन्तु एतत् कृत् प्रत्ययः अस्ति. कृत् प्रत्ययः अस्ति चेत् वयं द्वितीयसूत्रं नेड् वशीकृति चिन्तनम् अपि आवश्यकं. नेड् वशीकृति अत्र तकारः वलादि अस्ति, अपि च वशादि नास्ति. तकारः प्रथम व्यञ्जन वर्गीय प्रथम वर्णः अस्ति, अतः वशादि नास्ति. अतः तत्र इडागम अनुकूलः अस्ति, इडागमं भवति.
उत्तमं, तदेव महोदय. कर्ता, हर्ता, पठिता, दाता इत्यादीनि रूपाणि तृच् प्रत्ययान्तरूपाणि. अत्र चकारः इति संज्ञकः भूत्वा अपगच्छति, तृ अवशिष्यते. अतः एव तृच् प्रत्ययान्तरूपाणि ऋकारान्तपदानि भवन्ति. इत्युक्ते आहत्य अन्ततो गत्वा ऋकारान्तप्रातिपदिकं सिध्यति तृच् प्रत्ययस्य योजनेन. अयं प्रत्ययः अपि धातुभ्यः विधीयमानः प्रत्ययः एव. तृच् प्रत्ययस्य योजनेन ऋकारान्तप्रातिपदिकं सिध्यति. पठ् धातुतः तृच् योजनेन पठितृ इति प्रातिपदिकम्. सुबन्तपदं किं भवति? तृजन्तरूपं, प्रथमाविभक्ति एकवचनरूपं. पठिता प्रातिपदिकं पठितृ. पठितृ इत्यत्र धातौ अपि आनुकूल्यमस्ति, अतः इडागमः सम्भवति. क्रू धातुतः कर्तृ इति प्रातिपदिकं, प्रथमाविभक्ति एकवचनरूपं कर्ता. तत्र धातौ एव आनुकूल्यं नास्ति. क्रू धातुतः कर्ता, ह्रू धातुतः हर्ता, दा धातुतः दाता इति रूपं सिध्यति. दातृ इति प्रातिपदिकम् अस्ति. आहत्य तृजन्तरूपाणि ऋकारान्तपदानि भवन्ति. तृच् प्रत्ययः कृत् प्रत्ययः, तिङ् नास्ति. कृदतिङ् इति सूत्रेण प्रत्ययः कृत् प्रत्ययः अस्ति. अपि च महोदयेन यदुक्तं तत् साधु एव. कृत् प्रत्ययः अस्ति इति कारणतः द्वितीयसूत्रस्य प्रसङ्गः अस्ति वा इति अपि चिन्तनीयम्. नेड् वशीकृति इति सूत्रेण इडागमनिषेधः भवति वा इति अपि चिन्तनीयम्. अत्र नेड् वशीकृति इति सूत्रेण कार्यं न निषिध्यते. इत्युक्ते अयं तकारः वलादिः किन्तु वशादिः नास्ति इति कारणतः अस्मिन् प्रत्यये इडागमयोग्यत्वम् अस्ति, इडनुकूलता वर्तते. सेट् प्रत्ययः अयम्. केषुचित् कृदन्तपदेषु इडागमः दृश्यते, केषुचित् इडागमः न दृश्यते. किमर्थं चेत् तत्र धातोः प्राधान्यमपि अस्ति. धातव आनुकूल्यं वर्तते चेदेव इडागमः दृश्यते. वस्तुतः प्रत्ययः तु इडनुकूलप्रत्ययः इति वार्ता. रामचन्द्रन् महोदय, भवान् वदतु, तव्यत् इति प्रत्ययः अस्ति, अत्र किं चिन्तनम् आवश्यकम्?
तव्यत् कृत् प्रत्ययः अस्ति, तकारयित् हलन्त्यम् इति सूत्रेण तकारस्य लोपः भवति. क्षम्यतां भगिनि.
हा, चिन्ता मास्तु. श्रोतुमिच्छति चेत् साधु. वयं तृच् प्रत्ययस्य प्रसङ्गे पठितवन्तः खलु. केचन प्रत्ययाः सर्वेभ्यः धातुभ्यः विधीयन्ते, केचन प्रत्ययाः विशिष्टधातुभ्यः एव विहिताः भवन्ति इति एकः स्मर्तव्यः अंशः. तृच् प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति. तत्र णुवल् तृचौ इति एकं सूत्रमस्ति. णुवल् तृचौ इति सूत्रेण सर्वेभ्यः धातुभ्यः तृच् प्रत्ययः विहितः भवति. तव्यत् इति प्रत्ययः अस्ति, अत्र किं भवति? सुन्दरमहोदय, भवान् एव वदतु.
अत्र अन्तिमतकारः हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति. तव्य इत्येव अवशिष्यते. तकारः एतत् आर्धधातुकः एव, तिंशित् नास्ति इति कारणेन आर्धधातुकशेषः इति सूत्रेण अयं प्रत्ययः आर्धधातुकप्रत्ययः. तत्कारणेन इडागमस्य इडागमच चिन्तनम् अस्ति एव. तकारः सेड् वलादेः इति सूत्रेण सूत्रस्य वलादिप्रत्ययः अस्ति. तकारः वलादिप्रत्ययः अस्ति, तत्कारणेन वलादिप्रत्ययः अस्ति इति कारणेन तस्य प्रसक्तिः अस्ति एव. इडागमस्य चिन्तनं प्रसक्तिः अपि अस्ति एव. परन्तु तस्य वशादि एतत् कृत् प्रत्ययः अपि अस्ति, तत्कारणेन वशादि चिन्तनमपि करणीयं. तत्कारण इत्युक्ते वशादिप्रत्ययः अस्ति वा इति. वशादि प्रत्ययः नास्ति. वश् प्रत्ययः नास्ति, सोरि, वश् प्रत्याहारे तप्रत्ययः नास्ति. तत्कारणेन तस्य निषेधत्वमपि नास्ति. अतः तव्यत् प्रत्ययः इडानुकूल प्रत्ययः एव. तत्कारणेन यदि धातोः आनुकूल्यम् अस्ति तत्र इडागमः भवति एव. पठितव्यः, धावितव्यः, खादितव्यम् एतानि रूपाणि सन्ति एव. तदेव वर्तते.
महोदयेन सर्वम् उक्तमेव. अत्र अन्तिमतकारः हलन्त्यमित्यनेन इत् संज्ञकः भूत्वा तस्य लोपः इत्यनेन तकारः अपगच्छति. निरनुबन्धप्रत्ययः तव्य, अयं तव्यत् प्रत्ययः सर्वेभ्यः धातुभ्यः विधीयमानः प्रत्ययः एव. सर्वेभ्यः धातुभ्यः अयं प्रत्ययः विहितः भवति. प्रत्ययः तकारादिप्रत्ययः, आदिमवर्णः तकारः. निरनुबन्धप्रत्ययः तव्य. तिङ् नास्ति, षित् नास्ति, अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकप्रत्ययः. आर्धधातुकसंज्ञकप्रत्ययः अस्ति इति कारणतः आर्धधातुकस्येड्वलादेः इति सूत्रेण अस्य प्रत्ययस्य आदौ वलादिवर्णः तकारः वलादिवर्णः, वल् प्रत्याहारस्थवर्णः अयं तकारः. अतः आर्धधातुकस्येड्वलादेः सूत्रेण इडागमः भवितुं शक्नोति. इतोपि अत्र चिन्तनम् अस्ति. किम् इत्युक्ते, अयं प्रत्ययः तिङ् नास्ति. तिङ् नास्ति इति कारणतः कृदतिङ् इति सूत्रेण अयं प्रत्ययः कृत् प्रत्ययः भवति. कृत् प्रत्ययः अस्ति इति कारणतः द्वितीयसूत्रस्य आवश्यकता अपि अस्ति. द्वितीयसूत्रेण इडागमः निषिध्यते वा इति अपि चिन्तनीयम् अस्ति. द्वितीयसूत्रेण किमुच्यते? कृत् प्रत्ययः अस्ति चेत् वशादिवर्णः प्रत्ययस्य आदौ अस्ति चेत् इडागमनिषेधः भवति नेड् वशीकृति इति सूत्रेण इति अपि अस्माभिः पठितम्। अयं तकारः केवलं वलादिः, वशादिः नास्ति। वशादिः नास्ति इति कारणतः इडागमनिषेधः न भवति, इत्युक्ते इडनुकूलप्रत्ययः। अत्र किं वक्तव्यम्? प्रत्ययस्य आदौ तकारः अस्ति, तकारः वलादिवर्णः, वल् प्रत्याहारस्थवर्णः तकारः, किन्तु वशादिवर्णः नास्ति। अतः अयं प्रत्ययः सेट् प्रत्ययः, प्रत्ययः सेट् एव, किन्तु धातवपि आनुकूल्यम् अस्ति वा इति द्रष्टव्यं। खादितव्यं, पठितव्यम् इत्यादिषु रूपेषु इडागमः दृश्यते, किन्तु गन्तव्यं, वक्तव्यम् इत्यत्र इडागमः नास्ति। किमर्थं चेत् तत्र धातौ एव आनुकूल्यं नास्ति, इत्युक्ते सः धातुः अनिट्। वस्तुतः प्रत्ययः तु सेट् प्रत्ययः अथवा इडनुकूलप्रत्ययः। इदानीं सुजाता भगिनी भवती वदतु।
तवत् प्रत्ययः अस्ति, कृत् प्रत्ययः, तवत् उपदेशे जननासिक इत्यनेन अनुनासिकस्वरौ उकारस्य इत्संज्ञा भवति, लषक्व तद्धिते इत्यनेन ककारस्य इत्संज्ञा भवति, तस्य लोपः भवति, तवत् एव अवशिष्यते। कृत्प्रत्ययः अस्ति, तिंशित् नास्ति, आर्धधातुकप्रत्ययः शेषः इत्यनेन आर्धधातुकप्रत्ययः अस्ति, आर्धधातुकसेड् वलादेः इत्यनेन इडानुकूलः प्रसक्तिः अस्ति, तावत् ता वलादिप्रत्ययः अस्ति, तकारः वलादिवर्णः अस्ति इत्यनेन इडानुकूलः भवति, कृत्प्रत्ययः इत्यनेन कृतुतिङ् इत्यनेन कृत्प्रत्ययः अस्ति, नेड् वशीकृति इत्यनेन निषेधः भवति वा न ये चिन्तनीयं। वशादि न सवर्णः वशादिः नास्ति, वलादिः अस्ति इत्यनेन इडानुकूलः भवति।
उत्तमं भगिनि, साधु उक्तवती। अस्मिन् प्रत्यये इडनुकूलता वर्तते। कृत् प्रत्ययः अस्ति इति कारणतः द्वितीयसूत्रस्य कार्यमस्ति वा, नेड् वशी कृति इति सूत्रेण कार्यं निषिध्यते वा इति अपि द्रष्टव्यम्। किमर्थं चेत् अयं प्रत्ययः कृत् प्रत्ययः अस्ति, अतः द्वितीयसूत्रस्य चिन्तनमपि करणीयम्। अपि च अयं प्रत्ययः कित् अस्ति, कित् अस्ति चेत् किं भवति?
कित् अस्ति चेत्
क्निति च सूत्रेण गुणनिषेधः
भवति,
स्मर्तव्यः अंशः। अयं प्रत्ययः कृत् प्रत्ययः, धातुभ्यः विधीयमानः प्रत्ययः, तिंशित् नास्ति, अतः आर्धधातुकसंज्ञकः, आर्धधातुकसंज्ञकः, अपि च तिङ् नास्ति इति कारणतः कृत् अस्ति, कृत् अस्ति इति कारणतः द्वितीयसूत्रेण कार्यं निषिध्यते वा इति चिन्तनं करणीयम्। निरनुबन्धप्रत्ययः तवत्, तवत् प्रत्ययस्य योजनेन तकारान्तप्रातिपदिकं सिद्ध्यति, पठितवत् इति प्रातिपदिकं। प्रथमाविभक्ति एकवचनरूपं किं भवति?
पठितवान्।
अपि च प्रत्ययः कित् अस्ति इति कारणतः गुणकार्यं निषिध्यते। लिख् धातुः अस्ति खलु, लिख् धातुतः कीदृशरूपं सिद्ध्यति?
लिख् धातुतः लिखितवान्।
किमर्थं लेखितवान् न भवति?
कित् अस्ति, गुणकार्यं न भवति।
तदेव अत्र विषयः अस्ति। प्रत्ययः कित् प्रत्ययः अस्ति इति कारणतः क्निति च इति सूत्रेण गुणकार्यं निषिध्यते। लिखितवत् इति प्रातिपदिकं प्रथमाविभक्ति एकवचनरूपं लिखितवान्। महोदय वदतु।
गम् धातुः अस्ति किल, तत्र कथम् आगच्छति? किल
प्रत्ययः तु इडनुकूलप्रत्ययः एव, किन्तु धातौ तत्र आनुकूल्यं नास्ति। गम् धातुतः गतवत् इति प्रातिपदिकं सिद्ध्यति। पुंलिङ्गे गतवान्, स्त्रीलिङ्गे गतवती, नपुंसकलिङ्गे गतवत् इति रूपाणि सिद्ध्यन्ति। तकारान्तप्रातिपदिकं सिद्ध्यति, तत्र धातौ आनुकूल्यं नास्ति, अपि च सः धातुः अनुनासिकान्तधातुः, एकेन विशिष्टसूत्रेण अनुनासिकवर्णस्य लोपः भवति, गम् इत्यत्र मकारस्य लोपः भवति तेन गतवान् क्त्वा प्रत्ययः अपि कित् प्रत्ययः एव क्तवतु अपि कित् प्रत्ययः एव अपि च पठित गत इत्यादिषु क्ता प्रत्ययः अस्ति क्ता प्रत्ययः अपि कित् अस्ति इत्युक्ते क्ता क्तवतु क्त्वा क्तिन् एते चत्वारः प्रत्ययाः कितः सन्ति अतः एतेषां प्रत्ययानां रूपसिद्धौ गुणकार्यं न कदापि भवति इगन्तधातुः अथवा लघुपदधातुः अस्ति चेदपि गुणकार्यं निषिध्यते एते चत्वारः प्रत्ययाः कित् प्रत्ययाः अतः गुणकार्यं निषिध्यते अत्र इडागमस्य चिन्तनं खलु क्तवतु इडनुकूलप्रत्ययः किन्तु धातोः अपि आनुकूल्यम् आवश्यकं ज्ञातवान् इत्यत्र ज्ञातवत् इति प्रातिपदिकमस्ति ज्ञा इति धातुः अनिट् धातुः गम् धातुः अपि अनिट् धातुः एव खादितवान् तत्र इडनुकूलता वर्तते धातौ केवलं प्रत्ययस्य प्रसङ्गे चिन्तनं कुर्मः चेत् प्रत्ययः तु सेट् प्रत्ययः अग्रे नरेश् महोदय भवान् वदतु क्त्वा
अग्रे त्वा अस्ति त्वा अत्र आदौ ककारः तस्य लशक्वतद्धिते सूत्रेण इत्संज्ञा भवति त्वा अवशिष्यते त्वा तु तत् तिंशत् नास्ति अतः सार्वधातुकः नास्ति तत् आर्धधातुकः अस्ति अत्र वयं चिन्तयामः आर्धधातुकस्य वलादेः अत्र निरम्बन्धुना तकारः अस्ति आदौ तकारः तु वलादे अस्ति अतः इडानुकूल प्रसक्तिः अस्ति परन्तु त्वा कृत् प्रत्ययः अस्ति कृत् प्रत्ययः अस्ति चेत् द्वितीयं सूत्रेण अपि आवश्यकं नेड् वशीकृति अत्र तकारः आदौ अस्ति तकारः वलादे तु अस्ति अत्र तकारः वशादे अपि नास्ति अतः इडानुकूलनिषेधः नास्ति अतः इडानुकूलः अस्ति त्वा इडानुकूलः अस्ति सेट् अस्ति
तदेव यथा क्तवतु इति प्रत्ययस्य प्रसङ्गे वयं चिन्तनं कृतवन्तः एवमेव अत्रापि चिन्तनं करणीयं क्ता प्रत्ययस्य प्रसङ्गे क्तवतु प्रत्ययस्य प्रसङ्गे यथा चिन्तनं कृतं तादृशं चिन्तनमेव अत्रापि आवश्यकम् अत्र निरनुबन्धप्रत्ययः त्वा अस्ति ककारः इत् संज्ञकः लशक्वतधिते इत्यनेन इत् संज्ञकः अयं प्रत्ययः अपि कित् प्रत्ययः पठित्वा खादित्वा इत्यादीनि रूपाणि वयं जानीमः प्रत्ययः कृत् अस्ति इति कारणतः प्रत्ययस्य आदिमवर्णः वशादिः अस्ति वा इति अपि चिन्तनीयम् आर्धधातुकप्रत्ययस्य आदौ वलादिवर्णः भवेत् सः प्रत्ययः कृत् अस्ति चेत् वशादिः मा भवेत् तस्य प्रत्ययस्य आदिमवर्णः वशादिः मा भवेत् तदानीम् एव सः प्रत्ययः सेट् भवति अयं प्रत्ययः वस्तुतः सेट् एव किन्तु गत्वा इत्यत्र धातोः आनुकूल्यं नास्ति इति कारणतः इडागमः न दृश्यते खादित्वा इत्यत्र इडनुकूलता वर्तते अग्रिमप्रत्ययः तुमुन् नरसिंह हेग्डे महोदय भवान् वदतु
महोदय तुमुन् अत्र अन्तिमनकारस्य हलन्त्यम् इत्यनेन संज्ञा भवति तस्य लोप इत्यनेन लोपः भवति उकार अनुनासिक उपदेशीयजुनासिक इत्यनेन संज्ञा भवति तस्य लोप इत्यनेन लोपः भवति तुम् इति अवशिष्यते तुम् इति कृत्प्रत्ययः अस्ति शित्तपि नास्ति तिङ्गपि नास्ति कृत् अस्ति कृत्प्रत्ययः अत्र प्रथमतया सार्वधातुकं तु नास्ति न शित् अस्ति न तिङ्ग् अस्ति अत्र सार्वधातुकं नास्ति आर्धधातुकं शेष इत्यनेन अर्धधातुक आर्धधातुक प्रत्ययः भवति आर्धधातुक सेड् वलादे इत्यनेन तस्य तकारः वल् प्रत्याहारे अस्ति अतः इडागमः इडागमस्य प्रसक्तिः अस्ति परन्तु कृत् प्रत्ययः अस्ति, तदपि दर्शनीयं. तत्र तकारः वल् प्रत्याहारे न वश् प्रत्याहारे नास्ति, अतः इडानुकुलस्य न प्रसक्तिः नास्ति, अतः प्रसक्तिः अस्ति अतः इडानुकुल अस्ति त्वं प्रत्यये. अवशादि अस्ति अतः इडानुकुल अस्ति.
वशादिः नास्ति, अवशादिः. साधु महोदय, धन्यवादाः. महोदयेन उक्तमेव, पश्यन्तु पठितुम् इत्यत्र इडागमः अस्ति, गन्तुं तत्र इडागमः नास्ति. अहं किं द्रष्टुं शक्नोमि? करपत्रं द्रष्टुं शक्नोमि. द्रष्टुम् इत्यत्रापि इडागमः न दृश्यते. वदतु सुन्दर महोदय.
दृष्टातु इडागम, इडागम अनुकूल अनुकूल अस्ति, तत् कारणेन धातोः अपि इडागम अनुकूल्यम् अस्ति इति कारणतः प्रत्ययस्य धातोः दर्शितुम् इति अवशिष्यते इति रूपं सेदयति.
किं वक्तव्यं? द्रष्टुम् इति अणिजन्तरूपं. दृश् धातुः इडनुकूलधातुः नास्ति, अनिट् धातुः एव. अतः तुमन् प्रत्ययस्य योजनेन दृश् धातुतः द्रष्टुम् इति रूपं सिद्ध्यति. सुजाता भगिनी, भवती वदतु, दर्शि इति णिजन्तधातुः, नूतनधातुः, अस्माभिः निर्मितः धातुः, णिच् प्रत्ययस्य योजनेन निर्मितः धातुः दर्शि. सर्वे अनेकाचित् धातवः सेटः भवन्ति इति स्मर्तव्यः अंशः. लौकिकधातुतः णिच् योजनेन सः धातुः अनेकाचित् भवति. इत्युक्ते तस्मिन् धातौ बहवः अचुवर्णाः, अनेकाचिति कथनेन एकस्मात् अधिकाः अचुवर्णाः तस्मिन् धातौ सन्ति इति अर्थः अनेकाचिति कथनेन. दर्शि इत्यत्र दकारात् परम् अकारः अस्ति, शकारात् परम् इकारः अस्ति. इत्युक्ते तत्र बहवः अचुवर्णाः सन्ति इति कारणतः सः धातुः अनेकाचित् धातुः, अनेकाचित् धातवः सेटः भवन्ति. धातौ आनुकूल्यं कथम् आगतम् इत्युक्ते णिच् योजनेन धातुः अनेकाच् भवति इति कारणतः तस्मिन् धातौ इडागमयोग्यत्वं वर्तते. वस्तुतः दृशि धातुः अनिट् धातुः एव, तदर्थमेव द्रष्टुम् इत्यत्र इडागमः न दृश्यते.
एकः सन्देहः भवति, दर्शयितुम् इत्यपि रूपम् अस्ति किल?
दर्शयितुमेव रूपं साधयितुं शक्नुमः. दर्शि इति नूतनधातुः, दर्शि इति धातुः अनेकाच् अस्ति इति कारणतः इडनुकूलः. तस्मात् परं तुमन् प्रत्ययं योजयामः. अत्र धातुः अनेकाच् अस्ति इति कारणतः प्रत्ययस्य इडागमः भवति. अतः दर्शीयोगः इतुम् इति रूपं योजयामः. दर्शीयोगः इतुम् णिजन्तधातोः परम् आर्धधातुकप्रत्ययः अस्ति इति कारणतः दर्शि इति धातोः परम् आर्धधातुकप्रत्ययः तुमन् अस्ति. दर्शि इत्यत्र इगन्तधातुः अस्ति, अन्तिमवर्णः इकारः अस्ति. अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण दर्शि इत्यत्र इकारस्य गुणः भूत्वा दर्शे भवति. दर्शे योगः इतुम् इति रूपम् अस्ति. तत्र यचोयवायावः इति सन्धिसूत्रेण एकारस्य स्थाने अयादेशः भवति. दर्शै इति रूपं सिद्ध्यति. दर्शै योगः इतुम् इति स्थितिः अस्ति. वर्णमेलनेन दर्शयितुम् इति रूपमेव सिद्ध्यति, न तु दर्शितुम्. भवान् वदतु अग्रे.
नूल् प्रत्ययस्य विषये, ओके, नूल् प्रत्ययः णकारस्य चुटु इति सूत्रेण णकारस्य इत्संज्ञा भूत्वा लोपः भवति. हलन्त्यम् इति सूत्रेण लकारस्य अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति. ऊ एव अवशिष्यते. आर्धधातुकस्येड्वलादेः इति सूत्रेण एतद् वलादिप्रत्यये अस्ति, तिष्ठति ऊ, तत् कारणेन इडागमस्य आनुकूल्यम् अस्ति एव, वलादिप्रत्यये तिष्ठति इति आर्धधातुकस्येड्वलादेः इति सूत्रेण तस्य प्रसक्तिः अस्ति. परन्तु अन्यत् नेड् वशीकृति इति सूत्रमपि कृत् प्रत्ययः, नूल् प्रत्ययः कृत् प्रत्ययः तिङ्प्रत्ययः नास्ति, इदतिङ् इदतिङ् इति सूत्रेण
कृदतिङ्
कृदतिङ् इति सूत्रेण एतत् कृत् प्रत्ययः अस्ति, नोल् प्रत्ययः कृत् प्रत्ययः अस्ति, तत्कारणेन नेड् वशीकृति इति सूत्रमपि तत्र प्रयोजनम् आगच्छति. अत्र अत्र नूल् प्रत्ययः वकारः वशि अस्ति, वश् प्रत्ययाहारे अस्ति एव, तत्कारणेन इडागमः निषिध्यते नेड् वशीकृति इति सूत्रेण. तत्कारणेन इडागमस्य प्रसक्तिः अस्ति, परन्तु तस्य प्राप्तिः नास्ति, न भवति. उ युवोरनाकौ इति सूत्रेण वकारस्य अक इति रूपं सिद्ध्यति. तत्कारणेन पट् धातोः पाठकः, चल् धातोः चालकः, एतानि रूपाणि सिद्ध्यन्ति.
अत्र निरनुबन्धप्रत्ययः वु अस्ति, अणकार लकारयोः इति संज्ञा भूत्वा वु इत्युक्ते वकारः उकारः, आदिमवर्णः वकारः अस्ति. वकारः वलादिः अपि च वशादिः. अयं प्रत्ययः तिंशित् नास्ति, अतः अर्धधातुकं शेषः इत्यनेन अर्धधातुकसंज्ञकः, अपि च तिङ् नास्ति इति कारणतः कृत् प्रत्ययः. अतः अत्र नेड् वशीकृति इति सूत्रस्य कार्यमस्ति. प्रत्ययः कृत् अस्ति इति कारणतः नेड् वशीकृति इति सूत्रेण कार्यं निषिध्यते. अतः णौल् प्रत्ययः अनिट् प्रत्ययः. अपि च महोदयेन एकम् उक्तम् अस्ति, धातुतः णुगुल् योजयित्वा रूपं साधयितुमिच्छामश्चेत् युवोरनाकौ सूत्रेण वु स्थाने अक आदेशः भवति. मया किञ्चित् पठितम् अस्मिन् प्रसङ्गे, किम् इत्युक्ते यत्र कुत्रापि प्रत्ययस्य कश्चन आदेशः भवति चेत् तम् आदेशं कृत्वा आदेशस्य आदिमवर्णः कः इति द्रष्टव्यम् इति अपि मया पठितम्. इत्युक्ते अत्र वु इति अवशिष्टप्रत्ययः अस्ति, वु स्थाने युवोरनाकौ इति सूत्रेण अक आदेशः भवति. तत्र अक इति आदेशः भवति चेत् तम् आदेशं कृत्वा तस्य प्रत्ययस्य आदिमवर्णः कः पश्यामश्चेत् तत्र अक इत्यत्र अजादिप्रत्ययः अस्ति खलु, अतः इडागमः निषिध्यते. किन्तु अत्र चिन्तनं तु महोदयेन उक्तमेव, अयं वकारः वलादिः अपि च वशादिः, वशादिः अस्ति इति कारणतः द्वितीयसूत्रेण कार्यं निषिध्यते. अतः णुवल् प्रत्ययः अनिट्, तदर्थमेव पठ् धातुतः पाठकः, गै धातुतः गायकः, इडागमः न दृश्यते अनिट् अस्ति इति कारणतः.
अत्र युवनौ सूत्रेण अक इति आदेशः भवति, तत्र पठ् धातोः अक योजनेन पठकः इति अस्य दीर्घः किमर्थम् अत्र आगच्छति तत् तत् अहं न जानामि. पाठकः किमर्थं पठ् धातोः अक इति योजनेन पठकः एव आगन्तव्यं किल, किमर्थं पाठकः इति आगच्छति?
पठ् धातुः कीदृशधातुः? अदुपधधातुः. अपि च णूल् प्रत्ययः कीदृशप्रत्ययः? णित् प्रत्ययः अस्ति. अत्र वृद्धिकार्यं भवति अत
उपधायाः
अत उपधायाः इति सूत्रेण वृद्धिः कृत्वा पठ् पाठ् भवति. अत्र द्वितीयसूत्रेण इडागमः निषिध्यते. इतोपि बहवः प्रत्ययाः अवशिष्टाः सन्ति. सुजाता भगिनी, ल्युट् प्रत्ययस्य प्रसङ्गे पठित्वा समापयामः.
ल्युट् प्रत्ययः कृत् प्रत्ययः अस्ति. हलन्त्यम् इत्यनेन टकारस्य इत्संज्ञा भवति. लशक्वतद्धिते इत्यनेन लकारस्य इत्संज्ञा भवति. यु एव अवशिष्यते, यु एव अवशिष्यते. तिंशित् नास्ति, आर्धधातुकप्रत्ययः आर्धधातुकशेषः इत्यनेन आर्धधातुकसंज्ञा प्राप्नोति. आर्धधातुकसेड् वलाधि इत्यनेन इडागमस्य प्रसक्तिः अस्ति. यु वलादिः अत्र एकं सूत्रमस्ति भगिनी. यु
नूतनसूत्रं तस्य प्रसङ्गे अपि चिन्तनं करिष्यामः, किन्तु अत्र अवशिष्टप्रत्ययः कः?
अवशिष्टप्रत्ययः यु एव अवशिष्यते, यकारः उकारः.
अयं प्रत्ययः कीदृशः? प्रत्ययस्य आदिमवर्णः कः?
आदिमवर्णः यकारः अस्ति, वसादिः अस्ति, वलादि नास्ति.
तथा न वक्तव्यम्. अत्र किं वक्तव्यं? प्रथमसूत्रं किं वदति?
आर्धधातुकसेड् वलादे सूत्रेण आर्धधातुक इडागम आर्धधातुकसेड् वलादे इत्यनेन अवशिष्य.
अत्र किं वक्तव्यं? प्रत्ययस्य अवशिष्टभागः यु अस्ति. तकारस्य इति संज्ञा भवति, लकारस्य इति संज्ञा लशक्वतधिते इत्यनेन भवति. तत्र यु अवशिष्यते.
यु वलादिप्रत्यय नास्ति,
यकारः वलादिवर्णः नास्ति, अवलादिः
अवलादिः इत्यनेन नेड्वशीकृति.
किमर्थं नेड्वशीकृति? वलादिः एव नास्ति. अत्र एव चिन्तनं स्थगनीयम्, अग्रे न गन्तव्यम्. नेड्वशीकृति इति सूत्रपर्यन्तं न गन्तव्यम्. किमर्थं चेत् अयं यकारः वलादिः नास्ति. वल् प्रत्याहारे यकारं विहाय अन्यानि सर्वाणि व्यञ्जनानि सन्ति. निरनुबन्धप्रत्ययः यकारादिप्रत्ययः, यकारः वलादिः नास्ति. अतः आर्धधातुकस्य वलादेः इति सूत्रस्य कार्यमेव न भवति. तत्र एव चिन्तनं समाप्तं भवति. अनिट् भवति. कानिचन रूपाणि वदतु, ल्युडन्तरूपाणि.
अत्रापि एतत् सूत्रम् अस्ति किल, युवरनाकौ इति सूत्रस्य प्रसक्तिः अस्ति किल? अत्रापि
यु स्थाने आना आदेशः युवोरनाकौ इति सूत्रेण प्रत्ययादेशः भवति इति कृत्वा, प्रत्ययादेशं कृत्वा आदिमवर्णः कः इति पश्यामश्चेदपि अना आदिष्टः भवति इति कारणतः अजादिप्रत्ययः. मुख्यतया किं वक्तव्यम् अत्र? यकारः वलादिः नास्ति, अवलादिः अवलादिः इति कारणतः प्रथमसूत्रेण एव आर्धधातुकस्य वलादेः इति सूत्रेण एव अत्र कार्यं न भवति. इत्युक्ते तस्य सूत्रस्य प्रसक्तिः अस्ति किन्तु कार्यं न भवति. प्रत्ययः एव अनिट्, यथा अनियर् अस्ति एवमेव अयं प्रत्ययः अपि अनिट् प्रत्ययः. तदर्थमेव रूपाणि पश्यन्तु, पठ्यधातुतः पठनं
गमनं
लेखनं चिन्तनं वादनं भेदनं वन्दनं न कुत्रापि इडागमः दृश्यते.
भगिनि अत्र अत्र किमर्थं पकारस्य दीर्घः न भवति? तत् सूत्रस्य प्रसक्तिः नास्ति वा?
नास्ति.
पकारस्य तत्र अक इति पाठकः अस्ति, अन इति पठनम् एव भवति, पाठनम् इति न भवति. किमर्थम् इति मम सन्देहः.
अत उपधायाः इत्यस्मिन् सूत्रे अनुवृत्तिः का इति द्रष्टव्यम्. अनुवृत्तिं पश्यामश्चेत् त्रीणिति इति अनुवृत्तिरूपेण आयाति. इत्युक्ते उपधायां स्थितस्य अकारस्य वृद्धिः णित् प्रत्यये परे इणित् प्रत्यये परे एव भवति इति तत्र अनुवृत्तिः अस्ति. इणिति इति अनुवृत्तिरूपेण आयाति. उपधायां ह्रस्वाकारः अस्ति, तस्मात् परं णुवुल् इति कथनेन णुवुल् प्रत्यये णकारः इति संज्ञकः अस्ति. णित् प्रत्ययः अस्ति, णित् प्रत्ययः अस्ति इति कारणतः णित् प्रत्यये परे उपधायां स्थितस्य अकारस्य वृद्धिः भवति अत उपधायाः इति सूत्रेण. किन्तु अत्र णित् प्रत्ययः नास्ति, इणित् प्रत्ययः नास्ति, मूर्धन्यणकारः इति संज्ञकः अस्ति णुवुल् प्रत्यये. अत उपधायाः इत्यस्य कार्यं भवितुं तत्र उपधायां ह्रस्वाकारः भवेत्, अपि च तादृशधातोः परम् णित् प्रत्ययः अस्ति वा अथवा इणित् इत्युक्ते चवर्गीय अन्तिमव्यञ्जनम् इत् संज्ञकः अस्ति वा. इत्युक्ते प्रत्ययस्य आदौ णकारः अथवा यकारः इत् संज्ञकः अस्ति चेदेव तत्र वृद्धिः भवति इति कारणतः पठ्धातुतः पाठकः इति रूपं, किन्तु पठ्धातुतः पठनम् इति रूपमेव सिद्ध्यति. अत्र प्रत्ययः कित् नास्ति इति कारणतः गुणकार्यं भवितुं शक्नोति. लुट् प्रत्ययस्य योजनेन धातोः आनुकूल्यम् अस्ति चेत् गुणकार्यं भवितुं शक्नोति. तदर्थमेव लिख् धातुतः लेखनं, भिद् धातुतः भेदनं,
भूधातुतः भवनं.
रूपं साधयतु.
भूधातोः भूयोगे शप् योगे
शप् किमर्थम्?
शब् नास्ति. भूयोगे ल्युट्, ल्युट् एव लकारस्य लशकोदितिते इति सूत्रेण इत्संज्ञा भूत्वा अपगच्छति. टकारस्य हलन्त्यम् इति सूत्रेण अपगच्छति. यु एव अवशिष्यते. यु एवं युवरनाकौ इति सूत्रेण युवः स्थाने अन इति रूपं भवति, आदेशः भवति. भूयोगे अन इति करणीयं. परन्तु तत्र कित् नास्ति इति सूत्र इति कारणेन तत्र अत्र गुणकार्यस्य प्रसक्तिः भवति. एवम् आर्धधातुकं शेषः इति सूत्रेण सार्धधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणस्य प्राप्तिः अपि अस्ति. भूयोगे अन इति भो भवति गुणं कृत्वा भो भवति. भो इति सन्धिसूत्रेषु अयवावायः इति सूत्रेण भव योगे अन इति अन्तिमरूपं भवनम् इति अन्तिमरूपं सिद्ध्यति.
उत्तमम्. ल्युट् प्रत्ययः आर्धधातुकसंज्ञकः, धातुभ्यः विधीयमानः प्रत्ययः एव. तिङ्क्षित् नास्ति इति कारणतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकप्रत्ययः अस्ति. इत्युक्ते धातोः परम् आर्धधातुकप्रत्ययः अस्ति. भूयोगः ल्युट् इत्यस्मात् यु अवशिष्टप्रत्ययः. युवोरनाकौ इति सूत्रेण यु इत्यत्र यकारः उकारः वर्णद्वयम् अस्ति. यु स्थाने अन आदेशः भवति. भूयोगः अन इति स्थितिः अस्ति. धातोः परम् आर्धधातुकसंज्ञकप्रत्ययः अस्ति. धातुः इगन्तधातुः अस्ति. ऊकारः इक् प्रत्याहारस्थवर्णः. इगन्तधातुः भू. पश्चात् आर्धधातुकसंज्ञकप्रत्ययः अस्ति. प्रत्ययं निमित्तीकृत्य अत्र भू इति धातौ गुणकार्यं भवति. सार्वधातुक आर्धधातुकयोः सूत्रेण गुणकार्यम् ऊकारस्य गुणः ओकारः. अतः भू भो भवति. भो योगः अन इति स्थितिः अस्ति. इदानीम् अत्र सन्धिकार्यं यचोयवायावः इति सूत्रेण ओकारस्य स्थाने औ आदेशः भवति. तेन भौ योगः अन इति रूपम् अस्ति. तत्र वर्णमेलनेन भवन इति प्रातिपदिकम् अस्ति. ल्युडन्तरूपाणि नपुंसकलिङ्गपदानि एव भवन्ति. ल्युट् प्रत्ययस्य योजनेन नपुंसकलिङ्गरूपमेव सिद्ध्यति. केषाञ्चन प्रत्ययानां योजनेन रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति, किन्तु अयं ल्युट् प्रत्ययः विशिष्टप्रत्ययः. ल्युट् योजनेन तत्पदं नपुंसकलिङ्गपदमेव भवति. अतः भवनम् अत्र वार्ता का? अयं प्रत्ययः इडनुकूलः नास्ति. तदर्थमेव रूपेषु न कदापि इडागमः दृश्यते. पठनं, लेखनं, चिन्तनं, गमनं, वादनं, भेदनं, वन्दनम् इत्यादिषु इडागमः न दृश्यते. किन्तु प्रत्ययः कित् नास्ति इति कारणतः कुत्रचित् सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भवति. अत्र भूधातोः प्रसङ्गे सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति, तेन भवनम्. किन्तु लिख् धातोः प्रसङ्गे पुगन्तलघुपधस्य च इत्यनेन गुणकार्यं भूत्वा लिख् लेख् भवति. अन्यानि कार्याणि समानानि. अतः एव लिख् धातुतः लेखनम् इति रूपं सिद्ध्यति. प्रत्ययः कित् नास्ति खलु, अतः गुणकार्यं. प्रत्ययः तु इडनुकूलः नास्ति, अनिट् प्रत्ययः. वयं सर्वे मिलित्वा किञ्चित् चिन्तनं कृतवन्तः. इतोपि केचन प्रत्ययाः अवशिष्टाः सन्ति, तेषां प्रसङ्गे चिन्तनम् आगामिनि सप्ताहे करिष्यामः. अपि च धातूनां प्रसङ्गे एकं सूत्रमस्ति, एकाच उपदेशे अनुदात्तात्, तेन सूत्रेण धातोः अनिटत्वं सूच्यते, धातुः अनिट् भवति. धातूनां चिन्तनमपि कृत्वा अभ्यासं करिष्यामः आगामिनि सप्ताहे. समयाभावात् अत्र स्थगयामः. सर्वेषां धन्यवादाः.
धन्यवादः भगिनी.